इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः सुरेश चन्द्र शर्मा। इदानीं वार्ताः। श्रीमती रेखा गुप्ता दिल्ली प्रदेशस्य नव मुख्यमंत्री रूपेण देहलीस्थे रामलीला मैदान इति प्रांगणे अद्य पदगोपनीयतायाः शपथवचनं स्वीकुर्यात्। एतत्पूर्वं गतदिने सायंकाले भाजपा दलस्य विधायक दलीयोपवेशने श्रीमती रेखा गुप्ता दिल्ल्याः मुख्यमंत्री रूपेण सर्वसम्मत्या चिता। मुख्यमंत्री पदाय स्वीय नामोद्घोषणानन्तरं श्रीमती रेखा गुप्ता राजनिवासे उपराज्यपाल महोदयेन विनय कुमार सक्सेना इत्यमुना साकं मेलनं कृतवती। उपराज्यपाल वर्यः अद्य मध्याह्ने 12:30 रेखा गुप्ता इत्येतस्यै पदगोपनीयतायाः शपथं दापयिष्यति। एतस्मिन् भव्य शपथ ग्रहण समारोहे प्रधानमंत्री श्री नरेन्द्र मोदी, गृहमंत्री अमित शाह, रक्षामंत्री राजनाथ सिंह, नैके वरिष्ठाः नेतारश्चापि सम्मिलिताः भवितारः। एतस्मिन् समारोहे प्रायशः 20 राज्यानां मुख्यमंत्रिणः उपमुख्यमंत्रिणश्चापि सम्मिलिताः स्युः। अवधेयास्पदं यत् श्रीमती रेखा गुप्ता दिल्ली विधानसभा निर्वाचनेषु शालीमार बाग इति आसन्देन विजिता। तया सर्वप्रथमं अखिल भारतीय विद्यार्थी परिषद इत्येतेन सह स्वीया राजनीतिकी यात्रा समारब्धा। दिल्ली विश्वविद्यालय छात्र संघस्यापि अध्यक्षा आसीत्। दिल्ली भाजपा महिला मोर्चा इत्यत्रापि महासचिव रूपेण तया कार्याचरणं समनुष्ठितम्। प्रधानमंत्री श्री नरेन्द्र मोदी श्वः नवदेहलीस्थे भारत मण्डपम् इति स्थले साउल लीडरशिप कॉन्क्लेव इत्येतस्य कार्यक्रमस्य प्रथम संस्करणस्य उद्घाटनं विधास्यति। एतस्मिन् कार्यक्रमे भूटानस्य प्रधानमंत्री दाशो शेरिंग तोबगे इत्यसौ मुख्यातिथि रूपेण उद्बोधनं प्रदास्यति। द्विदिवसीय एतस्मिन् कार्यक्रमे राजनीति, क्रीडा, कला, संचार, सार्वजनिक नीति, व्यवसाय सदृशेषु विविध क्षेत्रेषु प्रेरक जीवन यात्रा विचाराः विनिमयीभूताः भविष्यन्ति। एतेन कार्यक्रमेण सहयोग विचार नेतृत्वस्य पारिस्थितिकीय तन्त्रस्य संवर्धनं भविष्यति, येन युवानः प्रेरिताः स्युः। G20 विदेशमन्त्रिणाम् उपवेशने भागग्रहणाय विदेशमन्त्री डॉक्टर सुब्रह्मण्यम् जयशंकरः दक्षिण अफ्रीका देशस्य जोहान्सबर्ग नगरस्य द्विदिवसीय यात्रारतो भविष्यति। एषा द्विदिवसीया यात्रा अद्य प्रभृति समारब्धा स्यात्। दक्षिण अफ्रीकायाः अन्ताराष्ट्रिय सहयोग सम्बन्ध मन्त्रिणः रोनाल्ड लामोला इत्येतस्य निमन्त्रणे डॉक्टर जयशंकरः जोहान्सबर्ग नगरम् अद्य प्राप्येत। विदेशमन्त्रिणाम् उपवेशनावधौ डॉक्टर जयशंकरः द्विपक्षीयां वार्तामपि समाचरेत् इत्याशा वर्तते। उत्तरप्रदेशस्य प्रयागराज तीर्थे समायोज्यमाने महाकुम्भ महोत्सवान्तर्गतम् आध्यात्मिकता संस्कृति इति विषयम् अधिकृत्य एका संगोष्ठी महाकुम्भ परिसरे समायोजिता। एतस्यां संगोष्ठ्यां यूनेस्को इलाहाबाद विश्वविद्यालयं समेत्य नैके शिक्षाविदः भागं गृहीतवन्तः। अथ पूर्ण इतिहासे महाकुम्भस्य महत्व सन्दर्भ विषयेषु विस्तरेण विचारान् प्रकटितवन्तः। अन्ते क्रीडावार्तासु, आईसीसी चैंपियंस ट्रॉफी इति क्रिकेट प्रतिस्पर्धायां गतदिने समायोजिते प्रथमे द्वन्द्वे न्यूजीलैंड दलेन पाकिस्तान दलं 60 धावनांकैः पराजितम्। प्रतिस्पर्धायां रोहित शर्मणः नेतृत्वे भारतीय दलम् अद्य मध्याह्ने दुबय्याः अन्ताराष्ट्रिय क्रीडांगणे बांग्लादेश दलं विरुध्य क्रीडिष्यति। स्पर्धा एषा मध्याह्ने 12:30 समारभेत्।